قصة مالية.
ओम गुरुब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः।
धन्यवाद महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र चित् छन इति अभ्ययानां विषये। तत्र वयं तेषां नियोजनं कथं भवति अथवा तयोः नियोजनं कथं भवति इति तस्मिन् विषये चर्चां कुर्वन्तः स्मः। अस्मिन् विषये गतसप्ताहे तत्र अष्टसप्ततिः तमे पुटे पर्यन्तं तत्र पुटपर्यन्तं कृतवन्तः इति।
नमस्कारः महोदय।
लक्ष्मी भगिनी नमस्कारः। भगिनी नमस्कारः। तत्र अष्टसप्ततितमं पुटं पर्यन्तं कृतवन्तः इति मन्ये, किन्तु तत्र कोष्टकं यत् अस्ति तत् एकवारं पुनः पश्यामः पठित्वा।
पुटसङ्ख्या किम्?
अष्टसप्ततिः भगिनि, अष्टसप्ततिः।
अस्तु अस्तु
अस्तु तर्हि। अतः तत्र रघुवीरनन्द स्वामीजी तत्र अष्टसप्ततितमे पुटे कोष्टकम् अस्ति पुल्लिङ्गे, तत्र किम् इति पदस्य
पुल्लिङ्गे।
अत्र अहं तत् करोमि भगिनि। अस्तु अस्तु
महोदय।
अस्तु वदतु महोदय।
अष्टसप्ततितमे
पुटे कोष्टकम् अस्ति, तत्र कः योगचित् इति किं पदस्य पुल्लिङ्गरूपाणि, किन्तु तेषां मेलनं चित् इति अव्ययेन, अतः रूपं कश्चित् कौचित् इति
किं पठनीयं महोदय?
कोष्टकमेव
वा? कश्चित् कश्चित् कौश्चित्
कौचित् एव तत्र
केचित्। ओ कश्चित् कौचित् केचित् प्रथमा विभक्तिः। द्वितीया विभक्तिः कञ्चित् कौचित् ओ कांश्चित्।
तत्र कांश्चित्
कांश्चित्। तृतीया विभक्तिः केनचित् काभ्यञ्चित्
काभ्याञ्चित् काभ्याञ्चित्
काभ्याञ्चित् कैश्चित्। चतुर्थी विभक्तिः कस्मैचित् काभ्याञ्चित् केभ्यश्चित्। पञ्चमी विभक्तिः कस्माच्चित्
तत्र चकारस्य द्वित्वं कस्माच्चित्।
तोषु नासु अमौ काभ्याञ्चित् केभ्यश्चित्। षष्ठी विभक्तिः कस्यचित् कयोश्चित् केषाञ्चित्। सप्तमी विभक्तिः कस्मिंश्चित् कयोश्चित् केषुचित्।
धन्यवादः महोदय। अतः तत्र केचन स्थलेषु किं भवति तत्र केषु स्थलेषु केषुचित् स्थलेषु किं भवति तत्र सकार सन्धिकार्यम् अस्ति इति कृत्वा तत्र अथवा कञ्चित् कं योगः चित् कञ्चित् इति भवति। अपि तत्र कस्मिन् योगः चित् इति तत्र कस्मिंश्चित् इति भवति। कयोः श्चित् कयोः चित् कयोश्चित् इति भवति। अतः तत् पुल्लिङ्गे अस्ति, एकवारं तत्र स्त्रीलिङ्गे अपि रूपं पठामः, तदनन्तरं तत्र किञ्चित् अभ्यासं कृत्वा अग्रे सरामः। तर्हि तत्र सूर्यकुमारी भगिनी इदानीं तत्र स्त्रीलिङ्गे अग्रिमे पुटे स्त्रीलिङ्गरूपाणि दत्तानि सन्ति, एकवारं पठति वा भगिनि?
प्रथमा विभक्तिः काचित् केचित् काश्चित्।
काः योगचित् काश्चित्
काश्चित् द्वितीयं काञ्चित् केचित् काश्चित् तृतीय कयाचित् काभ्याञ्चित् काभिश्चित्
काभिश्चित् तत्र काभिः काभिः इति विसर्गः अस्ति खलु तत्र विसर्गः अस्ति तत्र तु शकारः काभिश्चित्
कस्यैचित् काभ्याञ्चित् काभ्याश्चित्
काव्यश्चित् तत्र काव्यः चित् काव्यश्चित् तत्र काव्य चित् मध्ये शकारः काव्यश्चित्
कस्याश्चित् काव्याञ्चित् काव्याश्चित्
काव्यश्चित्
काव्यश्चित् षष्टि कस्याञ्चित्
तत्र कस्याश् इति न तत्र तत्र किं कस्याः चित् कस्याश्चित् कस्याश्चित्
कयोश्चित् कासाञ्चित्
कासां योगः चित् कासाञ्चित्
सप्तमी कस्याञ्चित् 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 कयोश्चित् कासुचित्
कासुचित् हा तत्र कस्यां योगः चित् तत्र मकारस्य किं भवति च वर्गीय ण्यकारः भवति तावत् कस्याञ्चित् इति भवति अस्तु समीचीनम् अस्तु इदानीं तत्र किमपि तत्र स्थापयामः स्थापित्वा अभ्यासं कुर्मः तर्हि अस्तु तर्हि तत्र लक्ष्मी भगिनी इदानीं तत्र पुल्लिङ्गरूपे तत्र कश्चित् इति तत्र किं स्थापयामः देवः कस्य कश्चित् देवः इति तस्य विभक्तिरूपाणि वदति वा भगिनि कश्चित् देवः कश्चित् देवः इदानीं कौचित् सर्वाणि रूपाणि एकवारं वदतु भगिनि
भक्तः कौचित् देवौ वन्देते
न केवलं वाक्यं मास्तु केवलं तत्र विशेषणमिति स्वीकृत्य वदतु भगिनि कश्चित् देवः कौचित् देवौ
केचित् केचित् देवाः अनन्तरं कञ्चित् देवं कौचित् देवौ काश्चित् देवान्
काश्चित् काश्चित् देवान् काश्चित् देवान् समीचीनं भगिनि
केनचित् देवेन काभ्याञ्चित् देवाभ्यां कैश्चित् देवैः कस्मैचित् देवाय काभ्याञ्चित् देवाभ्यां केभ्यश्चित् देवेभ्यः कस्माञ्चित् देवात् काभ्याञ्चित् देवाभ्यां केभ्यश्चित् देवेभ्यः कस्यचित् देवस्य कयोश्चित् देवयोः केषाञ्चित्
देवानां तत्र सर्वनामपदम् अस्ति चेत् तत्र श्याम् इति भवति
कस्मिंश्चित् देवस्मिन्
न देवे देवे
देवे कस्मिंश्चित् देवे कयोश्चित् देवयोः केषुचित् देवेषु
हा इति समीचीनं भगिनि बहु समीचीनं धन्यवादः अस्तु रघुपतिमहोदय इदानीं तत्र काचित् महिला इति
अस्तु महोदय काचित् महिला केचित् महिले काश्चित् महिलाः इति भवति काञ्चित् महिलां केचित् महिले काश्चित् महिलाः कयाचित् महिलया
कयाचित्
महिलया कयाचित् महिलया काभ्याञ्चित् महिलाभ्यां काभिश्चित् महिलाभिः कस्यैचित् महिलायै काभ्याञ्चित् महिलाभ्यां काभ्याश्चित् काभ्यश्चित् सम्यक् काभ्यश्चित् महिलाभ्यः कस्याश्चित् कस्याश्चित् एकवारं महिलायाः कस्याश्चित् महिलायाः काभ्याश्चित् महिलाभ्यां काभ्याञ्चित् महिलाभ्यां काभ्याश्चित् महिलाभ्यः कस्याश्चित् महिलायाः कयोश्चित् महिलयोः कासाञ्चित् महिलानां कस्याञ्चित् कस्याञ्चित् महिलायां कयोश्चित् महिलयोः कासुचित् महिलासु
समीचीनं महोदय धन्यवादः अस्तु समीचीनमस्ति हा सत्यं महोदय किन्तु अभ्यासार्थं यदि कुर्मः तत् सत्यं महोदय अस्तु तर्हि तत्र धन्यवादः महोदय अस्तु तर्हि तत्र सूर्यकुमारी भगिनी तत्र पूर्वस्मिन् पुटे तत्र अवधेयम् इति आसीत् तत्र कोष्टकात् पूर्वं किम् इति शब्दः इति
किम् इति शब्दः प्रश्नार्थकः तस्य रूपैः सह तस्य रूपैः सह चेत् तस्य रूपैः सह छित् चनयोजनेन अनिश्चितार्थकत्वं सिद्ध्यते
अनिश्चितार्थकत्वं सिद्ध्यति अग्रे अग्रे वदन्ति
उदाहरणानि काचित् गच्छति अत्र का गच्छति इति निश्चयः नास्ति
निश्चयः नास्ति तत्र काचित् गच्छति महिला गच्छति अथवा काचित् गच्छति का इति निश्चयेन न जानीमः तत्र काचित् इति अभ्यासः प्रयोगः भवति
द्वितीय कश्चन अभिनयति अत्र कः अभिनयति इति निश्चयः नास्ति
तत्र कोऽपि अभिनयं कुर्वन् अस्ति किन्तु सः कः इति सम्यक्तया न जानीमः निश्चयेन न जानीमः अतः वदामः कश्चन अभिनयति इति अग्रे
अत्र लिङ्गस्य ज्ञानम् अस्ति वक्तुः
लिङ्गनिश्चयः
भवति
किन्तु स्पष्टतया सः कः अथवा सा का इति पूर्णज्ञानं नास्ति
शिशिरः केनचित् सह क्रीडति
शिशिरः केनचित् सह क्रीडति
अत्र केन सह क्रीडति इति
क्रीडति
निश्चयः नास्ति
वयं जानीमः सः क्रीडति केन केन सह क्रीडति इति न जानीमः किन्तु अत्र कोऽपि अस्ति येन सह सः क्रीडति इति कृत्वा शिशिरः केनचित् सह क्रीडति
एतादृशः अर्थः अनिश्चितार्थः
तत्र निश्चित अर्थः संयुक्तं तत्र संयोजनेन तत्र निश्चितार्थः किन्तु तादृशी परिस्थितिः अत्र नास्ति अतः अनिश्चितार्थः इति निश्चितार्थः अत्र नास्ति अतः
अनिश्चितार्थः
इति निश्चयः निश्चयेन न वक्तुं शक्नुमः अथवा न जानीमः तत्र ज्ञानस्य न ज्ञानस्य प्रकारद्वयमस्ति एकमस्ति निश्चयज्ञानम् अन्यत् अस्ति संशयज्ञानम् तत्र वयं सः प्रायशः गणेशः किन्तु न जानीमः सः गणेशः वा न वा इति. अस्तु, तत्र कश्चन पुरुषः अस्ति इति तावदेव वक्तुं शक्नुमः. अस्तु, समीचीनम्. अस्तु, तर्हि अतः अग्रे सरामः. तत्र पुटसङ्ख्या 80 इति मन्ये इदानीं, तत्र तृतीय अभ्यासः. अस्तु, तत्र रघुवीरानन्दस्वामी आरम्भं करोति वा?
महोदय, वलयतः उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत. प्रभुः अपि जनस्य पापं सुकृतं वा न दत्ते.
तस्य अत्र महोदय कार्यं किम् इत्युक्ते, तत्र केवलं तत्र विशेषणम् इति चिन्तनीयमस्ति महोदय.
कस्य विशेषणम् इति अहम्
इति एव सत्यं सत्यं कस्य पदस्य समीचीनम्. इदानीं भवान् किं चिन्तयति, कस्य पदस्य इति?
पापं वा सुकृतं वा महोदय?
जनस्य इति पदस्य विशेषणम् अत्र आवश्यकम्.
ओ, तर्हि जनस्य तु षष्ठी प्रथमा षष्टि एकवचनं. तर्हि षष्ठी एकवचनं कस्यचित् भवेत्.
सत्यं
तद्दस्ति वलयतः अस्ति. प्रभुः कस्यचित् अपि जनस्य पापं कृतं वा न दत्ते.
अस्तु, इदानीम् अत्र प्रायशः वक्तव्यं सर्वे जानन्ति, किन्तु तत्र चित् चन तयोः मध्ये रूपभेदः अस्ति किन्तु अर्थभेदः नास्ति. अतः कस्यचित् वा कस्यचन वा तत्र समानार्थकपदद्वयं भवति. अतः तत्र चित् योजनेन यः पदं भवति तस्य पदस्य एव समानार्थकपदं चेन चन इति योजनेन अपि भवति इति. अतः कस्यचित् इति अत्र. अस्तु, अग्रे लक्ष्मी भगिनी द्वितीयम्.
अस्तु महोदय, कल्याणकृत् दुर्गतिं न गच्छति. दुर्गतिः स्त्रीलिङ्गपदम्, अतः काञ्चित् दुर्गतिं न गच्छति.
सत्यं सत्यं, तत्र प्रायशः तत्र काञ्चित् अथवा काञ्चन इति, किन्तु तत्र प्रायशः तत्र प्रायशः कञ्चित् इति दत्तमस्ति. काञ्चित् इति आसीत् चेत् सम्यक् आसीत्. प्रायशः मुद्रणदोषः अस्ति इति मन्ये भगिनि, तत् वलये नास्ति, किन्तु समीचीनमेव. तत्र दुर्गति इति स्त्रीलिङ्गे अस्ति, अपि विभक्ति का तत्र दुर्गतिम् इति द्वितीया विभक्ति एकवचनम्. अतः काञ्चित् दुर्गतिं न गच्छति.
दुर्गतिं
नास्ति महोदय. न, गतिः इति स्त्रीलिङ्गपदम् अस्ति भगिनि. बुद्धिः गतिः इति स्त्रीलिङ्गपदम्. अतः तत्र दुर्गतिं, तत्र प्रायशः यदि विशेषणं नास्ति इति स्वीकुर्मश्चेत् तत्र प्रायशः अन्यदपि तत्र स्थापितुं शक्नुमः.
दुर्गतिः अपि शक्यते महोदय.
किं भगिनि?
दुर्गतिः पुल्लिङ्ग.
दुर्गतिः इति पुल्लिङ्गमपि अस्ति वा?
अहं चिन्तयामि, न दृढं भवति.
अस्तु, तत्र संशयात्मकज्ञानम् अस्ति भवत्याः. अस्तु, अस्तु, किन्तु दुर्गतिम् इति दुर्गति इति स्त्रीलिङ्गपदम् इति मन्ये भगिनि.
मतिशब्दवदस्त्रीलिङ्गपदमस्ति
गतिः. अत्र यदि यदि विशेषणं मास्तु इति चिन्तनम् अस्ति चेत् तत्र अन्यत् अपि स्थापितुं शक्नुमः. कोऽपि वदति वा किं तत्र स्थापितुं शक्नुमः?
कदापि दुर्घटना
तादृशं तादृशं महोदय तत्र यथा
कदाचित् इति कदाचित् दुर्गतिं न तद् न भवति सम्यक् कदाचित् दुर्गति तद् भवितुं
दुर्गतिं न गच्छति
न गच्छति
इति अस्ति अतः तत्र अथवा केनचित् अपि दुर्गतिं न गच्छति केनचित् अपि तत्र स्थापितुं शक्नुमः किन्तु अत्र सम्यक्तया न दत्तं यदि विशेषणमेव स्वीकरणीयं न वा इति विशेषणं स्वीकरण यदि स्वीकुर्मः सुलभः भवति किन्तु न जानीमः कः आशयः इति अतः विशेषणम् इति चिन्तयामः अतः तत्र काञ्चित् इति स्थापयामः
महोदय मया तु न बुद्धं तत्र कथं केनचित् आगतम् इति
न केनचित् इति स्थापितं केन तत्र कल्याणकृत् यः उत्तमकार्यं करोति खलु
कल्याणकृत्
सः दुर्गतिं न गच्छति इदानीं तत्र किं
कदापि इति उक्ते सम्यक्
तदपि कदापि अथवा केनचित् अपि मार्गेण तत्र तस्य मार्गे तत्र दुर्गति नास्ति अतः तत्र तादृश अर्थे
केनचित् मार्गे अस्तु अस्तु
केनचित् अपि दुर्गतिं न गच्छति इति तादृश अर्थे किन्तु विशेषणम् इति स्वीकुर्मः सुलभं भवति इति अस्तु तर्हि अग्रे रघुपतिमहोदय
कथञ्चित् भवति महोदय कथञ्चित् तद् नास्ति वा कथञ्चित्
तत् तदपि प्रायशः स्थापितुं शक्नुमः महोदय तदस्ति वा तत्र कथञ्चित् इति
नास्ति नास्ति
नास्ति अतः केवलं विशेषणमिति एव अस्ति इति मन्ये महोदय विभक्तिर् लिङ्गं दृष्ट्वा वचनं दृष्ट्वा किन्तु कस्याञ्चित् समीचीनं नास्ति खलु भगिनि अत्र दुर्गति तु विभक्ति तु द्वितीया एकवचनं खलु
महोदय काचन समीपं काचन शब्दः छन अस्ति
किन्तु तत्र काश्चन अस्ति तत्र काः योगः छन न तु काञ्चन काञ्चन तत्र
एकवचने अस्ति दुर्गतिं
दुर्गतिम् एकवचने अस्ति अतः प्रायः स्वीकुर्मः अग्रे महोदय तृतीय
जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति जनाः इति प्रथमाविभक्तिवस्ति अतः तत्र केचन जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति इति भवति
तत्र केचन अथवा केचित् केचित् इति
केचित् अथवा केचित् अस्ति वा अस्तु
केचित् अस्ति
अस्तु केचित् अस्ति आमां
केचित् इति अस्ति समीचीनम् अस्तु अग्रे एतावत् सूर्यकुमारी भगिनी भवती न उक्तम् अस्तु
महोदय मनुष्याणां सहस्रेषु जनेन सिद्धये प्रयत्यते जनेन पुल्लिङ्ग प्रथमविभक्ति न तृतीयविभक्ति
एकवचनं समीचीनं
केचन केनचित्
मनुष्याणां सहस्रेषु मनुष्याणां तत्र मनुष्याणां सहस्रेषु केनचित् जनेन सिद्धये प्रयत्यते तत्र बहु अधिकतया जनाः प्रयत्नं न कुर्वन्ति इति वार्ता तावदेव अस्तु अग्रे स्वामी रघुवरानन्दस्वामी
आं महोदय
गीताशास्त्रं
गीताशास्त्रम् अपि अश्रूषवे न वाच्यम् अश्रूषवे केचित् महोदय
तत्र अश्रूषवे इति पदपरिचयं करोतु महोदय अश्रूषवे
अश्रूषुः अश्रूषवे अशुश्रूषुः
बहुवचनं न न न न तत्र कीदृशपदम् अस्ति तत्र अश्रूषुः इति
अश्रुश्रूषुः
कीदृशपदम् अस्ति तत्र देववत् अस्ति वा कविवत् अस्ति वा गुरुवत् अस्ति वा गुरुवत् अस्ति इदानीं गुरवे इति पदस्य विभक्ति का
महोदय चतुर्थी
हा चतुर्थी एकवचनं अतः
अतः ओ अतः कस्मैचित्
हा समीचीनम् अश्रुश्रूषवे न पाच्यम् समीचीनं महोदय कस्मैचित् अशुश्रूषवे न पाच्यम् समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी
भवतः अपि कर्मणि सङ्घं मास्तु
सङ्घः मास्तु
सङ्घः मास्तु
नमस्ते महोदय गीताञ्जलि अस्मि
क्षम्यतां
बहु विलम्बेन
आगतम् अशीतितमे पुटे
अस्तु अस्तु
भवतः अपि कर्मणि सङ्गः मास्तु तत्र कर्मणि सङ्गः मास्तु तावदेव भवतः इति अस्ति षष्टि अस्ति तत्र तृतीया नास्ति खलु भगिनि कर्मणि प्रयोगः इति नास्ति इति मन्ये तत्र भवतः अपि कर्मणि सङ्गः
सप्तमी कर्मणि
कस्मिन् विषये सङ्गः मास्तु कस्मिंश्चित् कर्मणि अपि सङ्गः भवतः सङ्गः मास्तु कस्मिंश्चित् अपि कर्मणि भवतः सङ्गः मास्तु समीचीनं भगिनि तत्र कर्मणि इति सप्तमी एकवचनं समीचीनम् अस्तु अग्रे रघुपतिमहोदय
आं महोदय भगवतः वाक्येषु अर्जुनस्य भ्रमः जातः वाक्येषु इति सप्तमी बहुवचनमस्ति अतः केषु इति केषुचित् अथवा केषुचन केषुचित् अस्ति वा इति
केषुचित् इति अस्ति
हा केषुचित् वाक्येषु अर्जुनस्य भ्रमः जातः
भगवतः केषुचित् वाक्येषु अर्जुनस्य भ्रमः जातः
भगवतः इति षष्टि
तत्र जातः तत्र भ्रमः जातः इति तत्र विशेषणविशेषभावः कस्य भ्रमः अर्जुनस्य इति
अर्जुनस्य
भ्रमः इति इदानीं तदनन्तरं कस्मिन् विषये इति तत्र वाक्येषु इति सर्वम् आयाति अस्तु अस्तु समीचीनं सूर्यकुमारी भगिनी अग्रे
महोदय आत्मा न अन्ति आत्मा एकवचनं प्रथमाविभक्ति हन्ति कर्मपदं कस्मिन् नो कञ्चित्
तत्र आत्मा न हन्ति अस्तु किम् उक्तवती
आत्मा न हन्ति किं हन्ति
अतः कञ्चित् आत्मा न कञ्चित् हन्ति इति वा किं वक्तुम् इच्छति तत्र न न प्रथमभागं प्रथमवाक्यम् आत्मा न हन्ति तत्र हन्ति इति
केनचित्
न
प्रथमवाक्यं प्रथमतया प्रथमवाक्यं स्वीकुर्मः भगिनि सूर्यकुमारी भगिनी तत्र तत्र किं स्थापनीयम् आत्मा न इदानीं रिक्तस्थानम् अस्ति तत्र किं स्थापयामः तत्र हन्ति इति किं क्रियापदं खलु किन्तु अतः तत्र रिक्तस्थानस्य रिक्तस्थाने कीदृशपदं भवति तत्र सूर्यकुमारी भगिनी रिक्तस्थाने
पदमस्ति अत्र आत्मा हन्ति न हन्ति कः नास्ति आत्मा न हन्ति
कर्तृपदं कर्तृपदं दत्तम् अस्ति कर्तृपदम् आत्मा अस्ति इदानीं तत्र किम् आवश्यकम् अस्ति वाक्ये क्रियापदम् अस्ति कर्तृपदम् अस्ति इदानीं किं नास्ति कर्मपदं नास्ति समीचीनं हा इदानीं कर्मपदस्य विभक्ति का
कञ्चित्
हा समीचीनं कञ्चित् न कमपि हन्ति अथवा न कञ्चित् हन्ति इदानीं तथा इदानीं द्वितीयभागं
न आत्मा हन्यते
तत्र कर्मणि प्रयोगः
केनचित् आत्मा हन्यते
तथा न केनचित् आत्मा हन्यते समीचीनं भगिनि हा अस्तु अस्तु अग्रे गीताञ्जलि भगिनि इदानीम् अग्रिमवाक्यम्
आं महोदय प्रयत्न करोमि
केवलं तत्र चिच्छन इति रूपाणाम् उपयोगेन तत्र रिक्तस्थानं पूरणं करणीयम्
अस्तु भगवतः चतुर्भुजरूपं वेदैः वा तपसा दानेन वा द्रष्टुं जनैः जनैः तृतीय बहुवचनं कैश्चित् जनैः न शक्यं
तत्र
कैश्चित् तृतीय बहुवचन विशेषणविशेष्य कैश्चित् जनैः न शक्यं
तावदेव समीचीनं भगिनि
इत्युक्ते कैश्चित् जनैः द्रष्टुं
तत्र
न शक्यं
तत्र न पश्यन्ति तत्र तैः न शक्यं द्रष्टुम् अथवा ते द्रष्टुं न शक्नुवन्ति तत्र ते अस्ति
ते द्रष्टुं न शक्नुवन्ति ते कर्तृपदं ते शक्नुवन्ति ते न शक्नुवन्ति किं न शक्नुवन्ति द्रष्टुं न शक्नुवन्ति
अतः तत्र केचित् जनाः न शक्नुवन्ति द्रष्टुं किं द्रष्टुं तत्र भगवतः चतुर्भुजरूपं वेदैः वा तपसा वा धानेन वा द्रष्टुं
अन्यथा केनापि मार्गेण न द्रष्टुं
शक्नुवन्ति इति सारांशः समीचीनं समीचीनं अस्तु अग्रे रघुवीरान् स्वामी अग्रिमम्
क्षम्यतां लाक् अभवत्
दशमम्
अर्जुनः भगवतः विभूतीः श्रुतवान् विभूतिः
इदानीं विभूतिः पदस्य परिचयं करोतु महोदय
महोदय प्रथमद्विवचनं विभूतिः विभूति
अत्र श्रुतवान् इति क्रिया इति कृतवान् इति क्रियापदम् इति चिन्तयामश्चेत् तत्र कर्तृपदं किम् अस्ति?
अर्जुनः श्रुतवान्।
अर्जुनः श्रुतवान्। इदानीं प्रश्नः भवति वा तत्र किं श्रुतवान् इति?
आम् महोदय।
हा प्रश्नः
विभूति श्रुतवान्।
हा विभूतिः
विभूतयः प्रथमं बहुवचनं।
हा किन्तु एतत् कत्र विभूतिः तत्र किम् अस्ति? एतत् विभू तत्र इकारान्तपदम् इति तु
बहुवचनं द्वितीयं महोदय।
इकारान्तपदम् इति स्पष्टं, बहुवचनं द्वितीय बहुवचनं समीचीनं। हा द्वितीय बहुवचनं। तत्र
तर्हि काञ्चित् वा
अपि लिङ्गं किम् अस्ति?
लिङ्गं विभूतिः इत्युक्ते स्त्रीलिङ्गं महोदय।
हा स्त्रीलिङ्गं। हा समीचीनं।
काश्चित्।
हा काश्चित् समीचीनं महोदय। हा
अर्जुनः काश्चित् विभूतिः कृतवान्।
हा तत्र काश्चन इति दत्तमस्ति किन्तु समानार्थकः, अतः काश्चित् अथवा काश्चन विभूतिः श्रुतवान् अर्जुनः भगवतः काश्चित् विभूतिः श्रुतवान्। समीचीनं महोदय। अस्तु अग्रे लक्ष्मी भगिनी।
गीतायाः वाक्यानि अत्यन्तं मनोहराणि एव वाक्यानि, अतः बहुवचने अस्ति। गीतायाः कानिचित् वाक्यानि अत्यन्तं मनोहराणि एव।
एव समीचीनम्। अत्यन्तं मनोहराणि एव, तत्र अत्यन्तम् इति प्रायशः तत्र अव्ययम् इति मन्ये, अतः तत्र कानिचित् वाक्यानि मनोहराणि अत्यन्तं मनोहराणि एव इति। अस्तु अग्रे सूर्यकुमारी भगिनि।
दीर्घः
धीराः धीराः
धीराः कर्मणः न इति चलन्ति धीराः इति चलन्ति किम् इति चलन्ति
किम् इति नास्ति तत्र, चलन्ति इति अस्ति तत्र प्रायशः व्यतिचलन्ति इति तत्र
व्यतिचलन्ति कर्मणः
कर्म कर्मणि
कर्मणि
कर्माणि न न कर्माणि
कर्माणि कर्मणः पञ्चमी अथवा षष्ठी
पञ्चमी
एकवचने
पञ्चमी अथवा षष्टि एकवचने रूपं दृष्ट्वा किन्तु अत्र किं का विभक्ति सूर्यकुमारी भगिनी किं चिन्तनं तत्र पञ्चमी विभक्ति वा षष्टि विभक्ति वा कर्मणः इति तत्र षष्टि भवति वा तत्र कस्य इति कर्मणः अस्ति चेत् तत्र कस्य इति तस्य रामस्य किमपि इति भवेत् किन्तु अन्यत् किमपि पदं नास्ति खलु अन्यत् किमपि नामपदं नास्ति खलु तत्र
कस्यचित् कर्मणः न इति चलति
अतः कर्मणः इति पदस्य विभक्ति का
षष्टि
न
एकवचनम्
एकवचनं तु सत्यं किमर्थं षष्टि यदि यदि रामस्य अस्ति चेत् चिन्तयतु भगिनि रामस्य इति वाक्ये रामस्य इति पदमस्ति तत्र रामस्य लिखति अस्ति चेत् तत्र किं वाक्यं समीचीनं वा तत्र किन्तु रामस्य अपि तदनन्तरं क्रियापदम् अस्ति चेत् तत्र अन्यत् किमपि नास्ति तत्र तत्र कर्तृपदं किमपि अस्ति तदनन्तरं रामस्य तदनन्तरं क्रियापदम् अस्ति चेत् तत्र वाक्यं समीचीनम् अस्ति वा
न
अत्रापि तादृश एव तत्र कर्मणः इति षष्टि यदि षष्टि स्यात् तत्र क्लेशः भवति तत्र वाक्यं समीचीनं इत्युक्ते तत्र कर्मणः कर्म यत् अस्ति तस्मात् दूरं तत्र न व्यतिचलन्ति धीराः यत् कार्यमस्ति तत् धैर्येण कुर्वन्ति ततः अन्यत्र न अपगच्छन्ति इति कर्मणः इति पञ्चमी एकवचन पञ्चमी भक्ति एकवचनं अतः तत्र
तस्य कर्मणः पुल्लिङ्गमहोदय
कर्मणः तु नपुंसकलिङ्गं किन्तु इदानीं तत्र पञ्चमी एकवचनं तु समीचीनमेव तत्र समानमेव पुल्लिङ्गरूप रूपेण अतः कस्माच्चित् तत्र कस्माच्चित् दत्तमस्ति वा तत्र नास्ति हा किन्तु तत्र कर्मण तु जानीमः तत्र तु एकवचनमेव अस्ति इति कृत्वा तत्र प्रायशः तत्र अस्तु किन्तु कस्माच्चित् एव समीचीनमिति मन्ये तत्र षष्ठी सम्यक् नास्ति पञ्चमी एकवचनम् एव समीचीनमिति मन्ये अतः कस्माच्चित् कर्मणः न व्यतिचलन्ति धीराः अस्तु अस्तु तर्हि अग्रे गच्छामः रघुपतिमहोदय अग्रे सुभाषितं
महोदय तत्र पुस्तके उत्तरं दत्तमस्ति कस्यचित् न जानामि
इति वा
महोदय कस्माच्चित् तु नास्ति एव तत्र
नास्ति कर्मणः न व्यतिचलति कस्मात् व्यतिचलति एव भवति खलु महोदय
सत्यं महोदय तत्र किं कर्मणः तादृशार्थम् अस्ति किन्तु कस्य कर्मणः व्यतिचलन्ति इति अस्ति चेत् तत्र कर्मणः तत्र
कस्यचित् विशेषणं महोदय
वाक्यस्य अर्थः कस्यचित् इति समीचीनं न भवति इति अस्ति
हा इति मन्ये भगिनी सूर्यकुमारी भगिनी यदि तत्र कस्यचित् अस्ति स्थापयतु इदानीं वाक्यस्य अर्थः कः
किमपि
किमपि कर्मण अस्तु कर्मण इति नास्ति किं किमपि कर्म एव भवति
वीरः कर्तृपदमस्ति कस्यचित् विशेषणं कर्मणः विशेषणं भवति
अस्तु भगिनि अर्थः कः
धीरः
रामस्य कर्मणः न व्यतिचलन्ति इति भवति वा न भवति
न व्यतिचलन्ति
इति इत्युक्ते किं भगिनि
कर्मणः
अन्यस्य कर्मण न व्यतिचलन्ति अथवा कृष्णस्य कर्मण न समीचीनं न भवति
सूर्यकुमारी एतत् चिन्तयतु एतत् वाक्यं चिन्तयतु बालकः रामस्य गच्छति इति अस्ति तत्तु रामस्य बालकः गच्छति इति नास्ति अस्तु बालकः अथवा बालकः बालकः प्रथमतया गच्छति तदनन्तरं रामस्य इति मध्ये स्थापयामः किन्तु सः बालकः तु रामस्य बालकः नास्ति इदानीं तत्र किम् अत्र किमपि वाक्यस्य इति पञ्चमी समीचीनम् इति मन्ये भगिनि न जानामि किमर्थं तत्र षष्ठी दत्तमस्ति उत्तरे किन्तु एतादृशं भवति अस्तु रघुपति
महोदय तत्र कस्माच्चित् तु आप्शन् एव न दत्तं
नास्ति नास्ति किं कुर्मः भगिनि
अस्तु अस्तु तत् इत्युक्ते तत् स्थाने किं दत्तं तदनन्तरं
न जानामि तद् यदि नास्ति
इत्युक्ते किम् अवशिष्यते अस्तु अत्र सर्वं तु
भगिनि तत्र
पञ्चमी सम्यक् महोदय
पञ्चमेव समीचीनम् अपि भगिनि तत्र केवलं द्वादशवाक्यानि सन्ति किन्तु तत्र वलये तु चतुर्दश पदानि दत्तानि इति मन्ये खलु
ओ
चतुर्दश दत्तं किन्तु समीचीनं
द्वादशवाक्यं वाक्यानि द्वादशवाक्यानि एव सन्ति
अपि च कस्माचित् आवश्यकं तत्तु न दत्तं
न दत्तम्
अस्तु 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 किञ्चित् मुद्रणदोषः अस्तु
इति
कर्मणः तृतीयबहुवचनमपि भवति खलु
अस्तु 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 तत् चिन्तयामः तत्र कर्मणः न व्यतिचलन्ति तत् अस्तु तत् चिन्तयामः तदस्ति चेत् तत्र किं भवति भगिनि भगिनि एकनिमिषः क्षम्यतां क्षम्यतां कर्मणः द्वितीय बहुवचनं वा
कर्मणः द्वितीयबहुवचनं
न बहुवचनं न द्वितीय न भवति भगिनि तत्र कर्म इति तु नपुंसकलिङ्गपदं कर्म कर्मणि कर्माणि अतः तत्र द्वितीयविभक्तौ अपि समानरूपं खलु कर्म कर्मणि कर्माणि नपुंसकलिङ्गपदम् इति कृत्वा
कर्म नपुंसकलिङ्गे एव कर्मः नास्ति
कर्मः इति नास्ति कर्म कर्मन् इति एव तत्र स्वरूपमहोदयस्य करपत्रे अपि दत्तम् अस्ति पश्यतु कर्मपदं कर्मकर्मणि कर्माणि अतः तत्र केवलं तत्र विकल्पः अस्ति अस्माकं विकल्पः अस्ति तत्र पञ्चमी विभक्ति वा षष्ठी विभक्ति वा एकवचने तावदेव
कर्मिन् इति भवितुमर्हति कर्मिन् तद् भिन्नमस्ति अतः कर्मणः न भवति
किं
कर्मं करोति स न कर्मिन् इति यः कर्मं करोति स
कर्मिकर्मी तद् भवितुमर्हति किन्तु तद् अतः वयं न जानीमः महोदय तत्र मुद्रणदोषः कुत्र अस्ति इति न जानीमः किन्तु तत्र कश्चित् मुद्रणदोषः अस्ति इति जानीमः
सत्यं
अस्मिन् पुटे कश्चित् मुद्रणदोषः अथवा तत्र प्रायशः केचित् केचित् मुद्रणदोषाः सन्ति इति किन्तु दोषाः के इति न जानीमः सम्यक्तया अस्तु अग्रे महोदय सुभाषितम्
अस्तु एते सुभाषिते उच्चैः पठत न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचित् रिपुः कारणेन हि जायन्ते मित्राणि रिपवस्तथा लोके कोऽपि जनः सहजतया अन्यस्य कस्यचित् मित्रं न भवति शत्रु अपि न भवति किमपि कारणम् अस्ति चेदेव जनाः मित्राणि शत्रुः वा भवन्ति इति कश्चित् न कश्चित् कस्यचित् मित्रं कस्यचित् मित्रं न भवति
न कश्चित् कश्चित् न कश्चित् कस्यचित् मित्रं न भवति विना कारणेन विना
विना कारणेन विना कारणेन कश्चित् कस्यचित् रिपुः अपि न शत्रुः अपि न भवति
शत्रुः रिपुः इत्युक्ते शत्रुः समीचीनं महोदय
कारणेन हि जायन्ते कारणं भवेत् तत्र सर्वदा मित्रं इदं जायन्ते मित्राणि विपवस्तत इति अत्र
तत्र
कारणम् अस्ति चेदेव जनाः मित्राणि अथवा शत्रवः वा भवन्ति
भवन्ति जायन्ते इति जायन्ते इति भवन्ति मित्राणि भवन्ति वा रिपवः भवन्ति समीचीनं महोदय धन्यवादः अस्तु अग्रे रघुवीरनन्दस्वामी
महोदय क्षम्यतां
चिन्ता मास्तु द्वितीयसुभाषितम्
केचित् महोदय किं करणीयं तत्र
पठित्वा तत्र केचित् ज्ञानतु
केचित् अज्ञानतो केचिदज्ञानतो नष्टाः केचिन्नष्टा प्रमादतः केचिज्ञानावलेपेन केचिन् नष्टैस्तु नाशिताः. केचित् केचित् अज्ञानतः नष्टाः.
अधो भागे अपि तत्र विवरणं दत्तमस्ति महोदय, तत् पठित्वा तदनन्तरं सुभाषितं सुभाषिते तत्र
लोके केचन नष्टाः भवन्ति. सरलार्थाः सरलार्थः लोके केचन अज्ञानेन नष्टः भवन्ति. अन्ये केचन प्रमादकारणेन नष्टाः भवन्ति. पुनः केचन अहं जानामि इति गर्वेन नष्टाः भवन्ति. एवं नष्टाः जनाः केचिन् नष्टैस्तु नाशिताः. अन्यान् एवं नष्टाः जनाः अन्यान् कांश्चित् नाशयन्ति अपि. ओहो अन्यान् काश्चित् नाशयन्ति अपि तथैव. अतः ते एतैः नाशिताः भवन्ति. यस् यस् लिबरल्स् अण्ड् कम्युनिस्ट् दिस् इस् वन् टु.
इदानीं तत्र एकमेकं पदं दृष्ट्वा तत्र चिच्छना इति रूपं कथं तत्र अस्ति इति
अज्ञानतः नष्टाः. केचित् महोदय प्रथमा बहुवचनम् इति.
केचित् जनाः इति केचित् अथवा केचन जनाः. समीचीनं.
जनाः इति अध्याहारः अस्ति वा?
अस्ति. हा समीचीनं महोदय. अतः तत्र केचन अथवा केचित् जनाः अज्ञानतः
नष्टाः.
तत्र सुभाषिते तु तत्र पञ्चमी इति दत्तमस्ति विभक्ति अज्ञानतः इति, किन्तु तत्र विवरणे तृतीया इति दत्तमस्ति, किन्तु कारणपञ्चमी अथवा कारणतृतीया.
तर्हि किं कारणपञ्चमी
तत्र अज्ञानतः इति?
अज्ञानतः कारणपञ्चमी.
तत्र कारणतः किं कारणम् अज्ञानतः अज्ञान.
हेतुपञ्चमी वा कारणपञ्चमी वा?
कारणम् इति हेतुः इत्युक्ते कारणम्.
टेक्निकल् वर्ड् इस् हेतुपञ्चमी हेतुतृतीया वा?
तत्र अहं तत्र कारणपञ्चमी अपि श्रुतवान् महोदय. अतः हेतु वा कारणं वा द्वयमपि साधु.
केचित् नष्टाः प्रमादतः.
अतः प्रमादकारणेन
केचित् जनाः प्रमादतः हेतुपञ्चमी महोदय तत्रापि नष्टाः भवन्ति.
अतः तत्र प्रथमभागः सुभाषितस्य प्रथमवाक्यम् इदानीं कृतम्. इदानीम् अग्रिमभागे
द्वितीयपादं तृतीयपादं तृतीयपादे केचित् ज्ञानावलेपेन ज्ञान अवलेपेन
ज्ञानस्य अवलेपेन
मया तत् अवलेपेन
तत्र अवलेपनम् इति तत्र औषधम् अवलेप लेपनं कुर्मः.
हा लेपनं, बट् दट् इस् ओन्ली आन् द औट्सैड् नो.
किन्तु अत्र तादृश तादृश ज्ञानम् उपयुज्य अवलेपनं कुर्मः.
अवगतम् इति गर्वेण.
तत्र औषधम् इव औषधं यदा औषधस्य लेपनं यथा कुर्मः तथा ज्ञानस्य अवलेपनं कुर्वन्ति इति.
लैक् द ब्यूटि फेस् पेक् महोदय.
तादृशम्
ओन्लि औट्सैड् इन्सैड् इट् हस् नाट् गोन्.
तादृशं.
सो हियर् ज्ञान इस् ओन्लि औट्सैड् इट् हस् नाट् गोन् ओ. अत एव गर्वेण नष्टाः इति.
केचन अहं जानामि इति गर्वेण
नष्टाः भवन्ति
भवन्ति. इदानीम् अन्तिमपादः.
केचित् नष्टैः तु नाशिताः.
तत्र केचित् नाशिताः जनाः सन्ति, ते तु तत्र अज्ञानेन न नाशिताः, प्रमादतः अपि न नाशिताः,
ज्ञानावलेपेन
अपि न नाशिताः, किन्तु केन कारणेन नाशिताः ते?
नष्टैः.
नष्टैः नाशिताः. समीचीनं महोदय. अतः नष्टैः इति अस्ति तृतीया बहुवचनम्. अतः कैचित् तत्र अथवा केचन नष्टैस्तु नाशिताः. तत्र किमर्थं केचित्?
महोदय तत्र अहं चिन्तयामि, अत्र पुरुष वाक्यमस्ति एवं नष्टाः जनाः अन्यान् कांश्चित् नाशयन्ति अपि, अतः ये नाशं प्राप्नुवन्ति ते अत्र टेक् रिवेञ्ज्. अतः एव अहं नष्टैः इति अहं चिन्तयामि, ये नष्टाः जनाः हु हव् लास्ट् एव्रिथिङ्ग् सो दे टेक् रिवेञ्ज् इति, तादृशार्थे एव.
सत्यं सत्यं महोदय. किन्तु मम प्रश्नः अत्र भ्रमः अत्र, तत्र नष्टैः तु अस्तु 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 अस्तु, तत्र केचन नाशिताः, केचन नाशिताः, तत्र अहं चिन्तितवान् मम भ्रमः तत्र नष्टैः, तत्र कैचन नष्टैः इति अहं चिन्तितवान्, किन्तु तत् नास्ति. तत्र कैश्चन नष्टैः नाशितः इति नास्ति, केवलं केचन नष्टैः तु नाशितः.
महोदय केचन वा केचित् वा?
सुभाषिते साक्षात् केचित् एव अस्ति. सुभाषिते तु केचित् योगः नष्टैः योगः तु, तदनन्तरं तत्र चकारस्य नकारः भवति. अतः केचिन्नष्टैस्तु नाशिताः. बहु समीचीनमस्ति, धन्यवादः महोदय. अस्तु अग्रे सरामः. गीताञ्जलिभगिनी अग्रिमे पुटे अवधेयम्.
आम् महोदय, अवधेयं चित् जना इत्येतयोः अर्थभेदः कोऽपि नास्ति. इति एतयोः इति इत्युक्ते चित् अपि चन इति, एतयोः इत्युक्ते षष्ठी द्विवचने
द्विवचने,
अपि च सप्तमी अपि भवितुमर्हति तत्र न? अर्थभेदः कोऽपि नास्ति. कश्चित् कश्चन इति एतयोः अर्थः समानः, कोऽपि भेदः नास्ति. एवम्
एव तत्र भगिनी प्रायशः तयोः एतयोः इति अस्ति चेत् इदानीं तत्र इति एतयोः अर्थः समानः, तत्र तु षष्ठी एव खलु?
हा हा हा, तत्र तु षष्ठी.
पूर्वस्मिन् तत्र भेदः कुत्र अस्ति इति अपि चिन्तितुं शक्नुमः, अतः तत्र सप्तमी अपि भवेत्, किन्तु अत्र तु षष्ठी एव
इति मन्ये सप्तमी भवितुम्,
किन्तु अत्र तु षष्ठी एव.
एवम् इतरत्र अपि,
हा इत्युक्ते तत्र कश्चित् कश्चन यथा ते तत्र पदद्वयमपि समानं, तादृशम् अन्यासु विभक्तिषु अपि तत्र समानम् एव. अतः इतरत्र अपि इतराणि रूपाणि अपि तत्र समानानि इति.
इत्युक्ते आल् डेरिवेटिव्स् आर् सेम् आल्सो.
हा सत्यं सत्यं भगिनि, हा सत्यं.
तथा एव आङ्ग्लभाषायाम् इटरेशन् कम्स् अस्तु अस्तु. आपणतः कानिचित् पत्राणि आनयामि. आपणतः तु पञ्चमी अर्थ, कानिचित् पत्राणि आनयामि,
तत्र पत्राणि आनयामि,
पत्राणि आनयामि,
निश्चयेन न जानामि, निश्चयेन न जानामि तत्र कानि पत्राणि आनयामि इति, अतः कानिचित् पत्राणि आनयामि.
प्रथम बहुवचन नपुंसकलिङ्गे पत्राणि आनयामि न
न
न न न न द्वितीय, क्षम्यतां, द्वितीय बहुवचने कर्मपदं
किं
न आने अहमेव,
क्षम्यता
महोदय, मम दोषः. अस्तु इत्युक्ते कानिचित् पत्राणि इत्युक्ते सम्
तत्र
कानिचित् पत्राणि आनयामि आपणतः आपणतः कानिचन अपि च कानिचित् समानेव पत्राणि आनयामि
तत्र पदभेदः अस्ति किन्तु अर्थे तु
समान अस्ति चेत् स्वेच्छा
यथेष्ट तत्र
यथेष्टं यथेष्टं कर्तुं शक्नुमः अग्रिमं पठामि वा महोदय
पठतु भगिनि
अस्तु केषुचित् नगरेषु जलाभावः अस्ति जल आभावः अस्ति इत्युक्ते मरुस्थल वा किमपि जलस्य अभावः अस्ति कुत्र अस्ति नगरेषु अस्ति केषु नगरेषु केषुचित् नगरेषु इत्युक्ते न जानीमः नगरस्य नाम तु न जानीमः किन्तु
केषुचित्
नगरेषु समानार्थक केषुचन नगरेषु जल अभावः अस्ति जलाभावः अस्ति समानेव द्वितीयबिन्दु परिश्रमिणः केचित् एव उत्तीर्णाः भवन्ति परिश्रमिणः न उत्तीर्णाः भवन्ति कर्तृ तु उत्तीर्णाः भवन्ति
तत्र भवन्ति परिश्रमिणः भवन्ति
परिश्रमिणः इत्युक्ते ये जनाः परिश्रम कुर्वन्ति
यस्य परिश्रमम् अस्ति सः परिश्रमी परिश्रमिण् इति नकारान्तपदं प्रातिपदिकम् इति मन्ये
परिश्रमिणः पदं महोदय परिश्रमिण् नकारान्त
गुणिन्वत्
सो परिश्रमिणः तु बहुवचन प्रथम बहुवचन पुंलिङ्गपदं नकारान्त इत्युक्ते परिश्रमिणः भवन्ति परिश्रमिणः प्रश्नवाचक किं के भवन्ति तु न परिश्रमिणः
के भवन्ति इति अपि समीचीनमेव भगिनि अथवा कीदृशाः भवन्ति कीदृशाः भवन्ति उत्तीर्णाः
भवन्ति कीदृशाः भवन्ति
उत्तीर्णाः भवन्ति
कीदृशाः भवन्ति ते उत्तीर्णाः भवन्ति
इदानीं प्रश्नः तत्र सर्वे परिश्रमिणः उत्तीर्णाः भवन्ति वा
न तत्तु न किं कथं जानीमः अत्र दत्तं केचित् एव इत्युक्ते केचित् इत्युक्ते बहुवचन रूपम् अस्ति केचित् एव इत्युक्ते सम् ओन्लि सम् पदम् ओन्लि सम् एव उत्तीर्णाः भवन्ति अस्तु अन्य अत्र दत्तमेव महोदय पूर्वस्मिन् श्लोके अन्य किं कुर्वन्ति
तत्र केचन परिश्रमिणः अथवा केचित्
परिश्रमिणः केचन एव उत्तीर्णाः भवन्ति समानार्थक अपि च यथेष्टम्
इति वार्ता समीचीनम् अस्तु अस्तु धन्यवादः भगिनि अस्तु अग्रे लक्ष्मी भगिनि अग्रिम अभ्यासः आरम्भं करोति भगिनि
कोष्टकस्थानं शब्दानां साहाय्येन उदाहरणानुगुणं वाक्यानि योजयेत कासाञ्चित्
न तत्र वाक्यं स्वीकृत्य करोति वा तत्र प्रथमवाक्यमस्ति पण्डिताः गीताव्याख्यानं कुर्वन्ति तत्र सर्वे पण्डिताः गीताव्याख्यानं कुर्वन्ति वा न खलु लक्ष्मी भगिनी अतः केचन पण्डिताः सर्वे न किन्तु केचन पण्डिताः गीताव्याख्यानं
कुर्वन्ति।
इदानीं तत् प्रथमवाक्यं खलु, उदाहरणं हा, तत्र सर्वे पण्डिताः इति न, केचन कुर्वन्ति, केचन पण्डिताः गीताव्याख्यानं कुर्वन्ति।
केचित् अपि सम्यक् महोदय,
केचित् अपि समीचीनमेव, सत्यं भगिनि। हा किन्तु यद् दत्तमस्ति तदेव उपयोज्य करणीयं खलु, अतः अस्तु, केचन अपि स्थापितं, केचित् अथवा केचन, समीचीनम्। इदानीं द्वितीयं मार्गेण,
मनोनिग्रहः करणीयः,
समीचीनं, केनचित् मार्गेण मनोनिग्रहः करणीयः, समीचीनं। हा अस्तु, सूर्यकुमारी भगिनी अग्रे।
अध्यायेषु अधिकाः श्लोकाः सन्ति, सप्तमी बहुवचनं,
पुल्लिङ्गं खलु, अध्यायः केषुचित्
अध्यायेषु अधिकाः श्लोकाः सन्ति।
हा समीचीनं भगिनि, हा अस्तु, अग्रे रघुपति महोदय।
हा महोदय, यतिः भगवन्तं प्राप्नोति, कः यतिः? कश्चित् यतिः भगवन्तं प्राप्नोति।
हा कश्चित् यतिः भगवन्तं प्राप्नोति, एकवचने। हा समीचीनं महोदय, अस्तु, रघुवीरानन्दस्वामी।
आं महोदय, महोदय प्रकृतिस्थानि वा
इदानीं तत्र भीताः इति, भीताः प्राञ्जलयः गृह्णन्ति।
भीताः प्राञ्जलयः गृह्णन्ति,
तत्र किमर्थं हकारः नास्ति इति न जानामि, गृह्णन्ति इति।
नूतनपुस्तके अस्ति वा?
न जानामि, मम
रघुपतिमहोदयस्य पार्श्वे, रघुपतिमहोदय
तदेव अस्ति।
अस्तु, अतः भीताः इति वचनं,
के गृह्णन्ति
तत्र महोदय? तत्र गृ इति धातु अस्ति महोदय, तत्र धातु अस्ति, अतः तत्र गृ इति धातु क्रयाधिगणे अस्ति, गृ इति धातु, तत्र तु याचनाकर्णः इति अर्थे।
ओ अस्तु अस्तु, अतः गृह्णाति इति,
आमां
गृह्णन्ति
इति अस्ति, रूपमपि अस्ति।
ओ अस्तु, इदानीम् अहं चिन्तितवान् तत्र प्राञ्जलयः इति, अस्तु अस्तु, अतः अहं चिन्तितवान्, समीचीनं,
गृणाति, गृणीतः, गृह्णन्ति इति रूपं भवति।
हा अस्तु, इदानीं समीचीनम्, अतः हकारस्य
भिन्नभिन्न अर्थः अस्ति तत्र,
किन्तु अत्र तु भीताः प्राञ्जलयः गृह्णन्ति,
पुकार्ण आवाहं कर्ण इति।
समीचीनं
महोदय, तर्हि भीताः इति विशेषणं, प्राञ्जलयः इति विशेष्यं खलु?
न
केचन भीताः प्राञ्जलयः गृह्णन्ति,
प्राञ्जलयः भूत्वा अञ्जलिं बद्ध्वा प्राञ्जल इति गृह्णन्ति इति।
एकनिमिषं महोदय, तत्र प्राञ्जली इति इकारान्तपदम् इति खलु,
प्राञ्जलिः, प्राञ्जलिः,
प्राञ्जली इति, अञ्जलि इति अस्ति खलु,
प्राञ्जलि,
अञ्जलि इति जानाति खलु भगिनि, अञ्जलि, किन्तु तत्र प्राञ्जलयः इति, तत्र अञ्जलि अस्ति चेत् तत्र, ओ
प्राञ्जलिः इकारान्त पुल्लिङ्गं नास्ति वा?
ओ
अञ्जलिः घटित्वा
प्राञ्जलिः, प्राञ्जलयः तत्र, परन्तु विशेषणं भवितुम् अर्हति,
विशेषणं तत्र, सत्यं महोदय,
पुल्लिङ्गे
अस्ति, पुल्लिङ्गे अस्ति चेत् समीचीनमेव, हरयः इति, अस्तु,
केचन भीताः प्राञ्जलयः गृह्णन्ति. सर्वे न गृह्णन्ति, केचन एव
गृह्णन्ति.
सर्वे प्राञ्जलयः भीताः न. तत्तु सत्यम् अस्ति महोदय.
We
don't pray in front of some god above the clouds, no?
अञ्जलि इति पुल्लिङ्गपदमेव महोदय.
अञ्जलि इति स्त्रीलिङ्गपदम् इति चिन्तयति.
अञ्जलि, अञ्जलि इति ह्रस्व,
ह्रस्व इकारः अञ्जलिः. अतः अञ्जलयः विशेषणं भवितुं भवति. अस्तु, समीचीनं, धन्यवादः. अस्तु, अग्रे गीताञ्जलि भगिनि.
गीतासु भगवद्गीता प्रसिद्धा. गीतासु तु सप्तमी बहुवचन. गीतासु भगवद्गीता प्रसिद्धा. गीतासु तु स्त्रीलिङ्ग इत्युक्ते केषुचित् न कासुचित् गीतासु कासुचित् गीतासु भगवद्गीता प्रसिद्धा. तदेव विशेषणविशेष्य भगवद्गीता प्रसिद्धा, अपि च कासुचित् गीतासु अपि विशेषणविशेषणविशेष.
समीचीनं भगिनि, तदेव अस्ति. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु महोदय. प्रकृति प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति. प्रकृतिस्थानि कारणानि कानि कारणानि कानिचित् प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति.
हा, समीचीनं भगिनि. हा, कानिचन कानिचित् प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति. समीचीनं. सूर्यकुमारी भगिनी अग्रे.
कथायां गीतामाहात्म्यं पठितवान्. कथायां स्त्रीलिङ्ग एकवचनं कास्यां
कस्यां योगः
कथायां
कथायाम् इति विभक्ति सप्तमी इति खलु.
ओ, कथायां, क्षम्यतां.
तत्र स्त्रीलिङ्गे न स्त्रीलिङ्गे कस्यां कस्याम् इति भवेत्. तदनन्तरं तत्र चिन्तत्वचन योजनेन किं भवति? कस्याञ्चित् कस्याञ्चित् कथायां
गीतामाहात्म्यं
पठितवान्. सः गीतामाहात्म्यं पठितवान्. कुत्र पठितवान्? कस्याञ्चित् कथायां सः गीतामाहात्म्यं पठितवान्. समीचीनं भगिनि. अस्तु, रघुपति
पूर्वस्मिन् वाक्ये तु अहं किञ्चित् न अवगतं तत्र किं किम् अभवत्. प्रकृतिस्थानि कारणानि सर्वान् चालयन्ति.
तत्र
चालयन्ति तु क्रियापदं बहुवचनं
अस्ति खलु. तत्र
णिच् अस्ति, तद् तद् अवगतं. किन्तु प्रकृतिस्थानि कारणानि इति पदस्य विषये तु किञ्चित् भ्रमः जातः महोदय.
न, कारणानि तत्र सर्वान् चालयन्ति. तत्र तत्र लोके यत् सर्वं भवति, अनेकानि तत्र चलन्ति, सर्वं भवति खलु. तत्र कारणं किम् इत्युक्ते तत्र प्रकृतिस्थकारणं प्रकृतिस्थानि कारणानि. कारणं प्रकृतौ अस्ति. प्रकृतौ स्थितं कारणम्
इत्युक्ते प्रकृतौ स्थित इत्युक्ते सप्तमी.
हा, तत्र अर्थः तु स्थित इति अर्थे तत्र तस्यां प्रकृत्यां स्थितम् अथवा स्थितानि कारणानि प्रकृत्यां स्थितानि कारणानि सर्वान् चालयन्ति.
अस्तु अस्तु इत्युक्ते संसारे इत्युक्ते प्रपञ्चे
तत्र प्रकृति इति तत्र प्रकृति इति लोकस्य प्रकृति वा अथवा मनुष्यस्य स्वभावः अपि तदपि वक्तुं शक्नुमः.
ओ अस्तु इत्युक्ते
तादृशं सर्वं प्रकृतिः इति यद् वदामः समूहः तत्र तस्यां प्रकृत्यां स्थितानि कारणानि सर्वान् चालयन्ति. सर्वाणि कारणानि चालयन्ति इति वा न किन्तु कानिचित् तत्र
कानिचित् किन्तु भगवद्गीता तु गीतायां तु दत्तमेव सर्वाणि इत्युक्ते श्लोक तु विस्मरामि किन्तु सर्वैः किं भगवान् कृष्ण एकवारम् उक्तवान् किम् अहङ्कारविमूढात्मा किम् अहं कृतमिति मन्यते एकं श्लोकम् अस्ति न तत्र महोदय
तत्र रघुवीरानन्दस्वामी भवतः प्रश्नः अस्ति यत्
कर्ताहमिति मन्यते.
हा कर्ताहम् इति मन्यते तत् श्लोके महोदय किं दत्तम् एकवारं स्मारयतु महोदय. प्रकृतैः जनैः गुणैः
चतुर्थसोपाने भवति भगिनि
द्वितीय अध्याये
चतुर्थपादे चतुर्थपुस्तके अस्ति इदानीं वयं द्वितीयसोपाने स्मः खलु
द्वितीय अध्याये इति चिन्ता मास्तु महोदय
किन्तु अत्र केवलं वाक्यं दृष्ट्वा तत्र प्रकृतिस्थकारणम् अथवा प्रकृतिस्थं कारणम् अथवा प्रकृतिस्थानि कारणानि प्रकृत्यां स्थितानि कारणानि कानिचन कारणानि सर्वान् चालयन्ति इति अत्र वाक्यं तावदेव.
अस्तु अस्तु इत्युक्ते अत्र तु कानिचित्
इति तावदेव कानिचित् कारणानि इति
अहं मम
तत्र सर्वशः इति अस्ति अतः भिन्नम् अस्ति सर्वशः प्रकृतेः मानानि गुणैः
तदेव इत्युक्ते
एक ही मूड पुरुष का लक्षण है वो.
हाँ तदेव महोदय तदेव श्लोकम इत्युक्ते कानिचित् क्षम्यता महोदय वदतु
सर्वशः फ्रॉम ऑल साइड्स सब प्रकार
अत्र तु कानिचित् कानिचन धन्यवादः महोदय.
अस्तु
धन्यवादः अस्तु अग्रे रघुपति महोदय.
हा महोदय प्रकृतीनां परिष्कारः अशक्यः प्रकृतीनाम् इति अस्ति अतः षष्ठी बहुवचने अस्ति अतः षष्ठी प्रकृतिः इति स्त्रीलिङ्गे अस्ति अतः कस्याः इति कस्याश्चित् कयोश्चित् कासाञ्चित् इति अतः कासाञ्चित् प्रकृतीनां परिष्कारः अशक्यः
कासाञ्चित् प्रकृतीनां परिष्कारः अशक्यः इति समीचीनम् अस्तु धन्यवादः महोदय. अस्तु अग्रे अस्तु रघुपतिमहोदय भवानेव तत्र अवधेयम् इति अस्ति तदपि पठति वा.
आं महोदय किं शब्दस्य रूपैः सः यथा तथैव कुत्र कति कदा कुतः कथम् एते इत्येतैः प्रश्नवाचकैः सह अपि चित्चन योजयितुं योजयितुं शक्यते. तेषामपि अनिश्चयार्थकत्वम् एव. यथा सः जङ्गमदूरवाणीं पातितवान् कुत्र न जानाति, कुत्रचित् पातितवान्.
एषः इदानीन्तनकाले तु यदि एतद् भवति तत्र महान् कोलाहलः भवति.
आत्मा न जायते न म्रियते. कदा कदाचित् न जायते, कदाचित् कदाचित् न जायते न म्रियते. कदाचित् कदाचित् अपि न जायते न म्रियते भवति वा खलु.
तत् अतः तत्र तस्य मरणं वा तत्र जननं वा मरणं वा नास्ति. आत्मनः मरणं वा जननं वा नास्ति.
हा कदाचित् न जायते. जीवने कष्टानि भवन्ति एव. स्वकार्यं समाजकार्यं च साधनीयं.
साधनीयं महोदय तत्र भागः अस्ति. जीवने कष्टानि भवन्त्येव कथञ्चित्
भवन् स्वकार्यं समाजकार्यं च साधनीयं कथं
साधनीयं कथञ्चित् समीचीनं.
सर्वस्यापि जन्मानि भवन्ति. कति जन्मानि भवन्ति? कतिचित् जन्मानि भवन्ति. सर्वस्यापि कतिचित् जन्मानि भवन्ति. वार्ता श्रुता मया कुतः, कुतश्चित् वार्ता श्रुता मया. कुतः इति न स्मरामि.
अतः तत्र कुतः
कुत इति न स्मरामि. अतः कुतश्चित्
अतः कुतश्चित् वार्ता श्रुता मया. इदानीं तत्र पाठे अपि तत्र कथा आसीत् खलु. कथायामपि तत्र एतादृशप्रयोगः अस्ति खलु.
बहुत्र
यदि तत्र सप्तसप्ततितमे पुटे कथा अस्ति खलु तत्र तस्यां कथायां तत्र
कदाचित् अस्ति कुतश्चित्
कदाचित् अस्ति कथञ्चित् कथञ्चित् अस्ति
कथञ्चित् अस्ति
कुतश्चित् अस्ति. अतः तत्र एतादृश एतादृशप्रयोगः भवति. तत्र अन्ये
केचन
तत्र अन्ये केचन तत्र कथायां तत्र प्रथमद्वितीयपरिच्छेदस्य अन्तिमवाक्यमस्ति. अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च. तत्र ते रक्षां प्राप्तवन्तः किन्तु कथं प्राप्तवन्तः इति वयं न जानीमः. अतः ते कथञ्चित् रक्षां प्राप्तवन्तः कथञ्चित् इति. समीचीनम्. अतः तत्र कुतः कुतश्चित् आगतः आगता नौका कुत्रचित् कति कदा कुतः कथं तत्र अपि तत्र चित् तत्वचन योजि तस्य योजनं कर्तुं शक्नुमः.
अत्र किम् इति अत्र स्वर्णपदमस्ति अतः सप्तषु विभक्तिषु भवति. अत्र परन्तु अत्र कुत्र कति कदा कुतः कथम् एतानि अव्ययानि अतः एक एव भवति.
एक सत्यं महोदय. समीचीनम्. अतः तत्र एकमेव रूपं. समीचीनम्. अस्तु तर्हि तत्र अग्रिम अभ्यासं कुर्मः. तत्र गीताञ्जलि भगिनी अग्रिमम् आरम्भं करोति वा भगिनि?
आं महोदय. कोष्ठकस्य साहाय्येन यथोदाहरणम् अनेकानि वाक्यानि रचयत. अस्तु. उमा कर्तृपदम् उमा कञ्चित् कञ्चन वा उमा अपठत् कम् अपठत् अपि च कानि अपठत् पुस्तकानि अपठत्. उमा पुस्तकानि अपठत्. उमा सर्वाणि पुस्तकानि अपठत् वा न. उमा कञ्चन पुस्तकानि पुस्तकानि कानिचन पुस्तकानि अपठत्. कानिचन पुस्तकानि
अपठत्
तदेव
समीचीनं अतः तत्र पुस्तकानि स्वीकृत्य तत्र यदि चुन्मः समीचीनं भवति सुलभः भवति अग्रे लक्ष्मी भगिनी
अहं ग्रन्थान् अपठम् अहं कान् ग्रन्थान् अपठं कांश्चित् अथवा काञ्चन काञ्चन ग्रन्थान् अपठम्
कांश्चित् अथवा कांश्चन ग्रन्थान्
कांश्चन ग्रन्थान् अपठम्
अपठम् समीचीनं भगिनि अस्तु अग्रे रघुवीरेन्द्रस्वामी
पत्रिकाः अपठम् अहं पत्रिका स्त्रीलिङ्ग बहुवचन अतः काचन काश्चन अहं काश्चन पत्रिकाः अपठम्
समीचीनं महोदय काः योग चन काश्चन अथवा काश्चित् समीचीनं महोदय श्रीरकुमारी भगिनी अग्रे
कविताम् अहं कविताम् अपठम् कवितां कविता स्त्रीलिङ्ग तृतीय एकवचनं काञ्चित्
काञ्चित्
अथवा काञ्चन कविताम् अपठम्
समीचीनं भगिनि समीचीनम् अस्तु अग्रे रघुपति महोदय
श्लोकं खलु महोदय श्लोकं वा
श्लोकः श्लोकं
अस्तु अहं श्लोकम् अपठम् अतः अहं श्लोकम् अपठम् इति अत्र कञ्चित् श्लोकं भवति अथवा कञ्चन श्लोकम् अपठम्
समीचीनं महोदय
द्वितीयभक्ति
द्वितीयभक्ति अहं कञ्चित् श्लोकम् अपठं समीचीनं महोदय समीचीनम् अस्तु अस्तु तर्हि बहु किमपि अतीतवन्तः अद्य अस्तु रघुवीरेन्द्रस्वामी भवान् एव अन्ते तत्र शान्तिमन्त्रं वदति वा
महोदय पठामि वा
समयः जातः महोदय अतः तत्र शान्तिमन्त्रं वदति वा महोदय
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
सर्वेभ्यो नमस्कारः